तस्तन्जनियन्हर्षं कुरुवृद्धस्थितामहः सिंहनादं विनोद्योचैः शङ्खं दद्मौ कृतात्वान्।
अथ वैदिकराष्ट्रगीतम्
ततः शङ्खाश्च भैर्यश्च पडवानसि गोमुखाः सहसा एव अभ्यहन्यन्तो सशब्दस्तुमुलो भवत्। ततश्वेतैहयैर्युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्नुतु। देवदत्तं धनञ्जय पौण्ड्रं दद्मौ महाशङ्खं भीमकर्मा वृकोदरः।
ऋग्वेदः
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः नकुलस्तदेवोषमणिपुष्पकौ। काश्यश्च परमेश्वासः शिखण्डी च महारथः दृष्टद्युम्नो विराटश्च सात्यकिश्च पराजितः। द्रुपदो द्रौपदेयाश्च सर्वशास्त्रश्रीपते सौभद्रश्च महाबाहु शङ्खां दद्मुः पृथक् पृथक्। सघोषो धात्राश्चानां सवयानि व्यधारयत् नभश्च पृथिवीं शैवो कुमलो व्यनुनादयन्। व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् पति त्वयः प्रवृत्ते शत्रुसंपाते पाण्डवः। यावदेतान् निरीक्षेऽहं योद्धु कामान् वस्थितान् तैर्मया सह योद्धव्यम् इन्द्रन्समुद्य मे। योत्समानानवेक्षेऽहं येते अत्र समागताः धार्तराष्ट्रस्य विद्युते युद्धे प्रियस्ति कीर्षवः। एवमुक्तो ऋषिकेशो गुडाकेशेन भारत तेनयोरुभयोः मध्ये स्थापयित्वा रथोत्तमम्। Thank you.
स्वः श्री विश्वकर्मणे नमः यज्ञोपवीताम् उपनह्यामि यज्ञोपवीतान्ते आचमनीयां जलं समर्पयामि
संसमिद्युवसेर्षन्नग्ने विश्वान्यर्या
वासो अग्ने विश्वारूपंसं याय समप्रीवासो
ॐ भूर्भुवस्वः श्री विश्वकर्मणे नमः
भीष्मद्रोण समुक्तः सर्वेषां च महीक्षिताम् उवाच पार्थ पश्येतां संवेतां कुरूनिति तत्रापश्यत्स्थितान् पार्थ पितॄणः पितामहान् आचार्यान् मातुलान् छात्रान् पुत्रान् पौत्रान् सतीं तथा शशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धून् वस्थितान्
सहि बन्धुरित्था
Allah paramam padam sada avashyanti suraya divi evadakshuratam tadvipra
When the eyes see, or the ears hear, or the nose smell, all these various functions have their basis in consciousness.
Tasya sanjani anharsham Guru Vraddha Pitamaha Simhanadam Vinodyochai Shankam Dadmau Pratapvan.
Atha Vaidika Rashtra Gitam.
Tata shankhascha bhairyascha padamanas gomukha sahasa eva abhyahamyanto sashabdastumulo bhavat.
So when the eye sees some part of the brain functions like that, different experiences require different aspects of brain physiology to be active. Now, transcendental consciousness is transcendental to any boundary of space and time. The experience of that level of intelligence, which is beyond space and time, is that experience, direct experience, which utilizes the basis of all these different areas of experience. Because that is a common field which is the main subject of experience.
Inas pade samidhya se sano masunya para.
Tata-shveta-iha-yayi-ryo-kyukte mahati-chandane-sthitau madhava-pandava-shtaivo divyau-shankau-pradadmatu.
Any boundary, any experience of boundary means some boundaries
of the brain function. Unbounded functioning only is possible with the experience of unbounded consciousness. Transcendental experience only will engage the basic value of all these different areas. All the different areas will begin to function simultaneously when one experiences transcendental pure consciousness.
దేవదత్తం ధనంజయ పౌండ్రం దద్మౌ మహాశంఖం భీమ కర్మ వృకోదర.
ఋగ్వేదః
అనంత వియయం రాజా కుంతీ పుత్రో యుధిష్ఠిరః నకులస్థాదేవచ్చుభోషమణిపుష్పకౌ.
And this transcendental pure consciousness experience is such a delightful experience. It's so harmonious. It's so much in freedom. One feels having come home. Coming back home is that unbounded experience of transcendental consciousness which awakens all the areas of the brain. And this practice morning and evening, practice morning and evening, practice morning and evening gives the brain physiology habituation to think from this unbounded level, which is the level of total natural law, total natural law.
Kashyascha Parameshvasa Chikandija Maharatha Drishta Dunmo Viratascha
That is why, according to the Vedic principle, the theme of action is described in terms of yogastha kuru karmani. Having established oneself in the unified field, transcendental, self-referral, unified field, perform action. Established in unified field, perform action. That means, make your total brain fully awake and then perform action from that level of total natural law, fully awake at the basis of action, or desire, or speech.
Drupado Draupadeyascha Sarvashastra Sripate Saubhadrascha Mahabahu Sankham Dadmukta Kattaka.
A very beautiful philosophy, very beautiful philosophy, very pleasant to experience and absolutely marvelous to achieve anything.
सघोषो भ्रात्राश्चाणां हृदयानि व्यधारयत् नभश्च पृथिवीं शैवो सुमलो व्यनुनादयन्.
Enlivenment of total brain in every thought and action depends upon the habit that the children are guided to during their student age.
Mata vyavasthitan drishtva धार्ताष्ट्रान् प्रति त्वयः प्रवृत्ते शत्रुतं पातेन पाण्डवः.
That is why the student age is destined to create unified level of intelligence, national consciousness in a unified manner, so that all speech and action and behavior will be detonated together in the underground, in the transcendental field, and therefore nothing will go wrong for anyone. Nothing will go wrong for anyone.
Rishikesham tadavakyam idam asamadhipate tena yor ubhayor madhye ratham sthapayame chyuta yavadetan nirishcheham yodhu kaman vasthitan kairmaya sahyodhavyam mindran samudhyame.
Education will be fruitful only in this ability to engage total natural law, unified field of self-referral consciousness, to come to experience. And this is what we talk about in the, what we say, consciousness-based education. Consciousness-based education, to engage total natural law, infinite creative intelligence of total natural law, to uphold any thought and action, so that life will be on the level of success and success.
योत्समानानवेक्षेऽहं येते अत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियस्ति कीर्षवः. एवमुक्तो ऋषिकेशो गुडाकेशेन भारत तेन योरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्.
विश्वकर्मणे नमः यज्ञोपवीताम् उपनश्यामि यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि
संसमिद्युवसेरशन्नग्ने विश्वान्यनिय
वासो अग्ने विश्वारूपं संयाय समभिभावसो
ॐ भूर्भुवः स्वः श्री विश्वकर्मणे नमः वस्त्रोपवस्त्रं समर्पयामि गन्धचन्दनाल्लेपनम्
भीष्मद्रोणसमुक्तः सर्वेषां च महीक्षिताम् उवाच पार्थपश्येतां संवेतां गुरुनिति तत्रापश्यत्स्थितान् पार्थ पित्रेण पितामहान् आचार्यान् मातुलान् भ्रात्रान् पुत्रान् पौत्रान् सतीं तथा शशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धून् वस्थितान्